चैतन्यम् सर्वभूतानां विभूतं जगतात्मना नादब्रह्म तदानन्दम् अद्वितीयम् उपास्महे
राजा राम पतित पावन।